ओम नमो भगवते वासुदेवाय। अथ चतुर्दशोऽध्यायः। राजोवाच मन्वन्तरेषु भगवन् यथा मन्वादयस्त्वि मे, यस्मिन् कर्मणि ये येन नियुक्तास्तद्वदस्व मे। ऋषिरुवाच मनवो मनुपुत्राश्च मुनयश्च महीपते, इन्द्रासुरगणाश्चैव सर्वे पुरुषशासनाः, यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप, मन्वादयो जगद्यात्रां नयन्त्यापिः प्रचोदिताः, चतुर्युगान्ते कालेन ग्रस्तान् श्रुतिगणान् यथा, तपसा ऋषयो पश्यन् यतो धर्मः सनातनः, ततो धर्मं चतुष्पादं मनवो हरिणोदिताः, युक्ताः सञ्चारयन्त्यद्धा स्वे स्वे काले महीं नृप, पालयन्ति प्रजापाला यावदन्तं विभागशः, यज्ञभागभुजो देवा ये च तत्रान्विताश्च तैः, इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जितां, भुञ्जानः पातिलोकान् स्त्रीन् कामं लोके प्रवर्षति, ज्ञानं चानुयुगं ब्रूते हरिसिद्धस्वरूपधृक्, ऋषिरूपधरः कर्म योगं योगेशरूपधृक्, सर्गं प्रदेशरूपेण दस्यून्हन्यात् स्वराड् वपुः, कालरूपेण सर्वेषामभावाय पृथग्गुणः, तूयमानो जनैरेभिर्मायया नामरूपया, विमोहितात्मभिर्नानादर्शनैर्न च दृश्यते, एतत्कल्पविकल्पस्य प्रमाणं परिकीर्तितम्, यत्र मन्वन्तराणि आहुश्चतुर्दश पुराविदः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् अष्टमस्कन्धे चतुर्दशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।